श्रीलक्ष्मीस्तोत्रम् देवकृतम् क्षमस्य भगवत्यम्ब क्षमाशीले परात्परे शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते उपमे सत्त्वसाध्वीनां देवीनां देवपूजिते त्वया विना जगत्सर्वं मृततुल्यं च निष्फलं सर्वसम्पत्स्वरूपात्वं सन्तुष्टा सर्वरूपिणी कामेश्वर्यधिदेवी त्वं त्वत्कलाः सर्वयोषितः कैलासे पार्वती त्वं च क्षीरोधे सिन्धुकन्यका स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले वैकुण्ठे च महालक्ष्मी देवदेवी सरस्वती गङ्गा च तुलसी त्वं च सावित्री ब्रह्मलोकगा कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयं रासे रासेश्वरी त्वं च बृन्दा बृन्दावने वने कृष्णप्रिया त्वं भाण्डीरे चन्द्राचन्दनकानने विरजा चम्पकवने शतशृङ्गे च सुन्दरी पद्मावती पद्मवने मालती मालतीवने कुन्ददन्ता कुन्दवने सुशीला केतकीवने कदम्बमाला त्वं देवी कदम्बकाननेऽपि च राज्यलक्ष्मी राज्यगेहे गृहलक्ष्मीर्गृहे गृहे इत्युक्त्वा देवताः सर्वे मुनयो मनवस्तथा रुरुदुर्नम्रवदनाः शुष्ककण्ठोष्ठतालुकाः इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम् यः पठेत् प्रातरुत्थाय स्तवैः सर्वं लभेत् ध्रुवम् अभार्यो लभते भार्यां विनीतां ससुयं सतीं सुशीलां सुन्दरीं रम्या मतिसुप्रियवादिनीं पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वरां अपुत्रो लभते पुत्रं वैष्णवं चिरजीवनं परमैश्वर्ययुक्तं च विद्यावन्तं यशस्विनं भ्रष्टराज्यो लभेत् राज्यं भ्रष्टश्रीर्लभते श्रियं हतबन्धुर्लभेत् बन्धुं धनभ्रष्टो धनं लभेत् कीर्तिहीनो लभेत् कीर्तिं प्रतिष्ठां च लभेत् ध्रुवम् सर्वमङ्गलदं स्तोत्रं शोकसन्तापनाशनं हर्षानन्दकरं शश्व दर्श्यमोक्षसुहृत्प्रदम् श्रीलक्ष्मीस्तोत्रं समाप्तम्।